श्रीमद्भागवत महापुराणम् षष्ठस्कन्धः अथाष्टमोऽध्यायः। नारायण कवच। हरिर्विदध्यान् मम सर्वरक्षान् न्यस्ताङ्घ्रिपद्मः पतगीन्द्रपृष्ठे दरारिचर्मासिगदेषु चाप पाशान्दधानोष्टगुणोष्टबाहुः जलेषु मां रक्षतु मत्स्यमूर्तिर्यादो गणेभ्यो वरुणस्य पाशात् स्थलेषु मायावटुवामनो व्यात् त्रिविक्रमख्येवतु विश्वरूपः दुर्गेष्वटव्याजिमुखादिषु प्रभुः पायान्द्रुसिंहो सुरयूथपारिः विमुञ्चतो यस्य महाट्टहासन् दिशो विनीदुर्न्यपतंश्च गर्भाः रक्षत्वसौ माध्वनियज्ञकल्पस् स्वदंश्रयो नीतधरो वराहः रामोद्रिकूटेष्वथ विप्रवासे स लक्ष्मणो व्याद्भरताग्रजोऽस्मान् मामुग्रधर्मादखिलात् प्रमादान् नारायणः पातु नरश्च हासात् दत्तस्त्वयोगादथ योगनाथः पायाद्गुणीशक् कपिलः कर्मबन्धात् सनत्कुमारो वतु कामदेवान् धयशीर्षा मां पथि देवहेलनात् देवर्षिवर्यः पुरुषार्चनान्तरात् कूर्मो हरिर्मान् निरयादशेषात् धन्वन्तरिर्भगवान् पात्वपथ्यात् द्वन्द्वाद्भयादृशभो निर्जितात्मा यज्ञश्च लोकादवता जनान्तात् बलो गणात्क्रोधवशादहीन्द्रः द्वैपायनो भगवान् प्रबोधात् बुद्धस्तु पाखण्डगणात् प्रमादात् कल्किः कलिः कालमलात् प्रपातु धर्मावनायोरुकृतावतारः मां केशवो गदया प्रातरव्याद् गोविन्दासङ्गममात्तवेणुः नारायणः प्राण उदात्त शक्तिर्मध्यन्दिने विष्णुररीन्द्रपाणिः देवो परहणे मधुहो ग्रधन्वा सायन्त्रिधामावतु मा दोषे ऋषिकेश उतार्ध रात्रे निशीथैको वतु पद्मनाभः श्रीवत्सधामा पररात्रईशः प्रत्यूषईशोऽस्ति धरो जनार्दनः दामोदरो व्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान् कालमूर्तिः चक्रयुगान्तानलतिग्मनिमिभ्रमत्समन्तान् भगवत्प्रयुक्तम् दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षयथा वात सखोहुताशः गदेश निस्पर्शन विस्फुलिङ्गे निष्पिण्डि निष्पिण्ड्यजित प्रियासि कूष्माण्डवैनायकयक्षरक्षो भूतग्रहांश्चूर्णय चूर्णयारीम् त्वया तु धानप्रमथ प्रेतमातृ पिशाच विप्रग्रहघोरदृष्टिम् दरेन्द्रविद्रावय कृष्णपूरितो भीमस्वनोरीर्हृदयानि कम्पयन् त्वन्तिग्मधारा शिवरारिसैन्य मीशप्रयुक्तो मम छिन्धि छिन्धि चक्षूंषि चर्मै क्षतचन्द्रच्छादयत् द्विषामघोनाम् हरपापचक्षुषाम् यन्नो भयं ग्रहेभ्यो भूत् केतुभ्यो नृभ्य एव च सरीसृपेभ्यो दंष्ट्रिभ्यो भूतेभ्यो मोभ्य एव वा सर्वाण्येतानि भगवन् नामरूपास्त्रकीर्तनात् प्रयान्तु संक्षयं सद्यो येन श्रेयः प्रतीपकाः गरुडो भगवान् स्तोत्रस्तो भश्चन्दो मयः प्रभुः रक्षत्वशीर्षकृच्छ्रेभ्यो विश्वक्सेनस्त्वनामभिः सर्वापद्भ्यो हरेर्नाम रूपयानायुधानि नः बुद्धीन्द्रियमनः प्राणान् पान्तु पार्षदभूषणाः यथा हि भगवानेव वस्तुतः सदसच्चयत् सत्येनानेन न सर्वे यान्तु नाशमुपद्रवाः यथैकात्म्यानुभावानां विकल्परहितः स्वयं भूषणायुधलिङ्गाख्या धत्ते शक्ति स्वमायया तेनैव सत्यमानेन सर्वज्ञो भगवान् हरिः पातु सर्वै स्वरूपैर्नस्तदा सर्वत्र सर्वगः विदिक्षु दिक्षूर्ध्वमधस्तमन्ता दन्तर्बहिर्भगवान्नारसिंहः प्रहापयल्लोकभयं स्वनेन स्वतेजसा ग्रस्तसमस्ततेजा।